श्रीमद्भागवत महापुराणम् दशमस्कन्धः अथैकविंशोऽध्यायः वेणुगीत श्रीशुक उवाच इत्थं शरत्स्वच्छजलं पद्माकरसुगन्धिना न्यविषद्वायुना वातं स गोगोपालकोच्युतः कुसुमितवनराजिषुष्मिभृङ्गद् द्विजकुलगुष्टसरस्सरिन्महीध्रम् मधुपतिरवगाय चारयङ्गास् सह पशुपालबलश्चुकूजवेणुम् तद्व्रजस्त्रियाश्रुत्य वेणुगीतं स्मरोदयं काश्चित् परोक्षं कृष्णस्य स्वसखीभ्योऽन्ववर्णयन् तद्वर्णयितुमारब्धा स्मरन्त्यक् कृष्णचेष्टितम् नाशकं स्मरवेगेन विक्षिप्तमनसो नृप बर्हापीडन् नटवरवपुक् कर्णयोः कर्णिकारम् बिभ्रद्वासः कनककपिशं वैजयन्ती च मालां रन्ध्रान् वीणो रधरसुधया पूरयन् गोपवृन्दैर्वृन्दारण्यं स्वपदरमणं प्राविशत् गीतकीर्तिः इति वेणुरवं राजन् सर्वभूतमनोहरम् श्रुत्वा व्रजस्त्रियः सर्वा वर्णयन्त्योभिरेभिरे गोप्य ऊचुः अक्षण्वतां फलमिदन्नपरं विदामस् सख्यः पशूननु विवेशयतोर्वयस्यैः वक्त्रं व्रजेशसुतयोरनुवेणुजुष्टम् यैर्वानिपीतमनुरक्तकटाक्षमोक्षम् चूतप्रवालबर्हस्तवकोत्पलाब्ज मालानुवृत्तपरिधानविचित्रवेषौ मध्ये विरे चतुरलं पशुपालगोष्ठ्यां रङ्गे यथा नटवरौ क्वच गायमानौ गोप्यः किमाचरदयं कुशलं स्म वेणुर् दामोदराधरसुधामपि गोपिकानां भुङ्क्ते स्वयं यदवश वसिष्ठरसं रदिन्यो ऋष्यत्वचोषु मुमुचुस्तरवो यथार्याः वृन्दावनं सखि भुवो वितनोति कीर्तिम् यद्देवकी सुतपदाम्बुजलब्धलक्ष्मी गोविंद वेणु मनुमत्तमयूर नृत्यम् प्रेक्ष्याद्रिसान्वपरतान्य समस्त सत्वम् धन्यास्म मूढमतयोऽपि हरिण्यहेता यानन्दनन्दनमुपात्त विचित्रवेषम् आकर्ण्य वेणुरणितं सह कृष्णसाराः पूजां दधुर्विरचितां प्रणयावलोकैः कृष्णं निरीक्ष्य वनितोत्सवरूपशीलम् श्रुत्वा च तत्क्वणितवेणुविचित्रगीतम् देव्यो विमानगतयस्मरनुन्नसारा भ्रश्यत्प्रसूनकवरामुहुर्विनीव्य गावश्च कृष्णमुखनिर्गतवेणुगीत पीयूषमुत्तभितकर्णपुटैः पिबन्त्यः श्यावास्नुतस्तनपयक् कवलास्मतस्थुर्गोविन्दमात्मनि दृशा श्रुकला स्पृशन्त्यः प्रायो बताम्बविहगामुनयो वनेऽस्मिन् कृष्णेक्षितं तदुदितं कलवेणुगीतम् आरुह्य द्रुमभुजान् रुचिरप्रवालान् शृण्वन्त्यमीलितदृशो विगतान्यवाचः नद्यस्तदा तदुपधार्य मुकुन्दगीत मावर्तलक्षितमनो भवभग्नवेगाः आलिङ्गनस्थगितमूर्मिभुजैर्मुरारिर्गृणन्ति पादयुगलं कमलोपहारा दृष्ट्वा तपे व्रजपशून् सहरामगो सञ्चारयन्तमनुवेणुमुदीरयन्तम् प्रेम प्रवृद्धौदितक् कुसुमावलीभिस्सख्युर्व्यधात् स्ववपुषाम्बुदातपत्रम् पूर्णाः पुलिन्द्यौरुगाय पदाब्जरागश श्रीकुङ्कुमेन दयितास्तनमण्डितेन तद्दर्शन स्मर रुजस्तृणरूषितेन लिम्पन्त्याननकुचेषु जहुस्तदाधिम् हन्तायमद्रिरवला हरिदासवर्यो यद्राम कृष्णचरणस्पर्श प्रमोदः मानन्तनोति सह गो गणयोस्तयोर्यत् पानीयसूयवसकन्दरकन्दमूलैः गागोपकैरनुवनन्नयतोरुदार वेणुस्वनैः कलपदैस्तनुहृत्सु सख्यः अस्पन्दनं गतिमतां पुलकस्तरूणान् निर्योगपाशकृतलक्षणयोर्विचित्रम् एवंविधा भगवतो यावृन्दावनचारिणः वर्णयन् क्रीडास्तन्मयतां ययुः इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे वेणुगीतं